ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। श्री भगवानुवाच। जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः, मैधारयतश्चेत उपतिष्ठन्ति सिद्धयः। उद्धव उवाच, कया धारणया का स्वित् कथं स्वित् सिद्धिरच्युत? कतिवा सिद्धयो ब्रूहि योगिनां सिद्धितो भवान्। श्री भगवानुवाच, सिद्धयोऽष्टादश प्रोक्ता धारणायोगपारगैः, तासामष्टौ मत्प्रधानादशैव गुणहेतवः। अणिमा महिमा मूर्तेर्लघिमा प्राप्तिरिन्द्रियैः, प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणमीषिता, गुणेष्वसङ्गो वशिता यत्कामस्तदवस्यति। एतामे सिद्धयः सौम्य अष्टावौत्पत्तिकामताः। अनूर्मिमत्वं देहेऽस्मिन् दूरश्रवणदर्शनम्, मनोजवः कामरूपं परकायप्रवेशनम्, स्वच्छन्दमृत्युर्देवानां सह क्रीडानुदर्शनम्, यथा सङ्कल्पसंसिद्धिराज्ञा प्रतिहता गतिः, त्रिकालज्ञत्वमद्वन्द्वं परचित्ताद्यभिज्ञता, अज्ञर्काम्बुविषादीनां प्रतिष्ठम्भो पराजयः। एताश्चोद्देशतः प्रोक्ता योगधारणसिद्धयः। यया धारणया या स्यात् यथा वा स्यान्निबोध मे, भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन्मनः। अणिमानमवाप्नोति तन्मात्रोपासको मम, महत्यात्मन् मयि परे यथा संस्थं मनो दधत्। महिमानमवाप्नोति भूतानां च पृथक् पृथक्, परमाणुमये चित्तं भूतानां मयि रञ्जयन्, कालसूक्ष्मार्थतां योगी लघिमानमवाप्नुयात्। धारयन्मय्यहं तत्त्वे मनोवैकारिकेऽखिलम्, सर्वेन्द्रियाणामात्मत्वं प्राप्तिं प्राप्नोति मन्मनाः। महत्यात्मनि यः सूत्रे धारयेन्मयि मानसं, प्राकाम्यं पारमेष्ठ्यं मे विन्दते व्यक्तजन्मनः। विष्णौ त्र्यधीश्वरे चित्तं धारयेत् कालविग्रहे, स ईशित्वमवाप्नोति क्षेत्रक्षेत्रज्ञचोदनाम्। नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते, मनोमय्या दधत् योगी मद्धर्मावशितामियात्। निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः, परमानन्दमाप्नोति यत्र कामो वसीयते। श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि, धारयन् श्वेततां याति सदूर्मिरहितो नरः। मय्याकाशात्मनि प्राणे मनसा घोषमुद्वहन्, तत्रोपलब्धा भूतानां हंसो वाच शृणोत्यसौ। चक्षुस्त्वष्टरि संयोज्य त्वष्टारमपि चक्षुषि, मां तत्र मनसा ध्यायन् विश्वं पश्यति सूक्ष्मदृक्। मनोमयिषु संयोज्य देहं तदनुवायुना, मद्धारणानुभावेन तत्रात्मा यत्र वै मनः। यदा मन उपादाय यद्यद्रूपं बभूषति, तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः। परकायं विसंसिद्ध आत्मानं तत्र भावयेत्, पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत्। पार्ष्ण्यापीड्यगुदं प्राणं हृदुरः कण्ठमूर्धसु, आरोप्य ब्रह्मरन्ध्रेण ब्रह्मनीत्वोत्सृजेत्तनुं। विहरिष्यन् सुरा क्रीडे मत्स्थं सत्त्वं विभावयेत्, विमानेनोपतिष्ठन्ति सत्त्ववृत्तिसुरस्त्रियः। यथा सङ्कल्पयेद्बुद्ध्या यदा वामत्परः पुमान्, मयि सत्ये मनो युञ्जन्तथा तत्समुपाश्नुते। यो वै मद्भावमापन्न ईशितुर्वशितुः पुमान्, कुतश्चिन्न विहन्येत तस्य चाज्ञा यथा मम। मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणावितः, तस्य त्रैकालिकी बुद्धिर्जन्ममृत्युपबृंहिता। अग्न्यादिभिर्न हन्येत मुनेर्योगमयं वपुः, मद्योगश्रान्तचित्तस्य यादसामुदकं यथा। मद्विभूतिरभिध्यायन् श्रीवत्शास्त्रविभूषिताः, ध्वजातपत्रव्यजनैः स भवेदपराजितः। उपासकस्य मामेवं योगधारणया मुनेः, सिद्धयः पूर्वकथिता उपतिष्ठन्त्यशेषतः। जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः, मद्धारणां धारयतः कासा सिद्धिः सुदुर्लभा? अन्तरायान् वदन्त्येत युञ्जतो योगमुत्तमम्। मया सम्पद्यमानस्य कालक्षपणहेतवः, जन्मौषधितपोमन्त्रैर्यावतीरिह सिद्धयः। योगेनाप्नोति ता सर्वा नान्यैर्योगगतिं व्रजेत्। सर्वासामपि सिद्धीनां हेतुः पतिरहं प्रभुः। अहं योगस्य सांख्यस्य धर्मस्य ब्रह्मवादिनाम्। अहमात्मान्तरो बाह्यो नावृतः सर्वदेहिनां। यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे पञ्चदशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।